इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। अथ वार्ताः। संसदस्य मानसून सत्रम् अद्य आरप्स्यते। सत्रमिदम् आगस्ट् मासस्य एकविंशति दिनांकपर्यन्तं भविष्यति। अधिवेशनकाले द्वयोः सदनयोः आहत्य एकविंशतिः अधिवेशनानि भविष्यन्ति। अवधेयमस्ति यत् ऑपरेशन सिन्दूराभियानस्य अनन्तरम् एतत् संसदस्य प्रथमं सत्रं वर्तते। सर्वकारेण स्पष्टीकृतं यत् सत्रावसरे सर्वकारः महत्वपूर्णविषयाणां चर्चायै सिद्धः वर्तते। संसदस्य मानसून सत्रे द्वयोः सदनयोः सुचारुरूपेण कार्यं सुनिश्चेतुं सत्रात् पूर्वं ह्यः सर्वकारेण सर्वपक्षीय संगोष्ठी कृता। सत्रस्य सुचारुरूपेण संचालनार्थं विपक्षदलेभ्यः सहकार्यं प्राप्तुं सर्वकारेण एषा सभा आहूता आसीत्। लोकसभा राज्यसभायाः प्रतिनिधित्वं कुर्वन्तः विभिन्न राजनैतिक दलानां दलनेतारः सभायाम् उपस्थिताः आसन्। सभायाः अनन्तरं वार्ताहरैस्सह भाषणं कुर्वन् संसदीय कार्याणां मन्त्री किरेन रिजिजुः अवदत् यत् सभा अतीव रचनात्मका आसीत्, तथा च दलनेतारः स्वपक्षस्य स्थितिम् अस्मिन् सत्रे यान् विषयान् ते उत्थापयितुम् इच्छन्ति तान् च प्रस्तुतवन्तः।
हमने ये रिक्वेस्ट किया है कि सदन अच्छा से चले के लिए पक्ष और विपक्ष मिल करके हमको काम करना होगा, आपस में कोऑर्डिनेशन अच्छी तरह से रखना होगा। हम पॉलिटिकल पार्टीज अलग अलग विचारधारा का हो सकता है, मगर पार्लियामेंट का सदन अच्छी तरह से चले ये सबका जिम्मेदारी है, अपोजिशन का भी जिम्मेदारी है और सरकार का भी जिम्मेदारी है।
बिहार विधानसभायाः मानसून सत्रम् अद्य आरप्स्यते। पञ्चदिवसीय सत्रम् जुलै मासस्य पञ्चविंशति दिनांकपर्यन्तं भविष्यति। अस्मिन् वर्षे अक्टोबर नवम्बर मासयोः विधानसभा निर्वाचनं भविष्यति इत्यतः मानसून सत्रम् राज्यसभायाः अन्तिमसत्रम् भविष्यति। संसदीय कार्याणां मन्त्री विजय कुमार चौधरी उक्तवान् यत् विपक्षेण उत्थापितस्य प्रत्येकस्य विषयस्य प्रतिक्रियां दातुं सर्वकारः पूर्णतया सज्जः। गोवा विधानसभायाः मानसून सत्रमपि अद्य आरभ्य आगस्ट् मासस्य अष्टम दिनांकपर्यन्तं निरन्तरं प्रचलति। सत्रं महत्वपूर्णं भविष्यति, यत्र शासनं विकासं जनकल्याणं च इत्यादिभिः सम्बद्धाः प्रमुखाः विषयाः व्यापकरूपेण चर्चायै उत्थापयितुं शक्यन्ते। सर्वकारः विधानसभायां षोडश विधेयकानां प्रस्तावं करिष्यति, अन्य पञ्चदश निजी सदस्यानां प्रस्तावविषये अपि चर्चा भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी बुधवासरात् ब्रिटेन देशस्य मालदीवस्य च द्वयोः राष्ट्रयोः यात्रां करिष्यति। यात्रायाः प्रथमे चरणे प्रधानमन्त्री जुलै मासस्य त्रयोविंशति दिनांकात् चतुर्विंशति दिनांकपर्यन्तं ब्रिटेन देशस्य समकक्षस्य कीर स्टार्मर इत्यस्य आमन्त्रणे ब्रिटेन देशं गमिष्यति। अस्मिन् भ्रमणाद् अवधौ प्रधानमन्त्री मोदी भारत ब्रिटेन द्विपक्षीय सम्बन्धानां सम्पूर्ण परिधिविषये प्रधानमन्त्रिणा स्टार्मर इत्यनेन सह विस्तृत विमर्शं करिष्यति। निजयात्रायाः द्वितीये चरणे प्रधानमन्त्री मोदी अस्य मासस्य पञ्चविंशति दिनांकात् मालदीवस्य राष्ट्रपतिः डॉ मोहम्मद मुइज्जु इत्यस्य आमन्त्रणे द्विदिवसात्मके मालदीव यात्रायां भविष्यति। सः मालदीवस्य स्वातन्त्र्यस्य षष्टिवर्षस्य उत्सवे मुख्यातिथिः भविष्यति। अस्मिन् अवधौ सः मालदीवस्य राष्ट्रपतिना सह मिलित्वा परस्परहितानां विषयेषु चर्चां करिष्यति। कावड्यात्रायाः अन्तिमचरणं प्रचलति इत्यतः बहुसंख्याकाः कावड्यात्रिकाः हरिद्वारं प्राप्ताः सन्ति, यत्र शिवभक्ताः भगवते शिवाय अर्पणार्थं पवित्रगंगाजलस्य संग्रहं कृत्वा शीघ्रं प्रत्यागच्छन्ति। प्रफुल्लित जनसमूहस्य प्रबन्धनार्थम् आरक्षिबलैः यातायात योजना कार्यान्विता वर्तते। एतावता 2.5 कोटिभ्यः अधिकाः कावड्यात्रिकाः पवित्रगंगाजलेन सह स्वगन्तव्यस्थानानि प्रति प्रस्थिताः सन्ति। जार्जियादेशस्य बटुमी इत्यत्र प्रचाल्यमानायां FIDE महिलाचतुरङ्ग विश्वचषक क्रीडायां भारतीय क्रीडिका कोनेरु हम्पी उपान्त्यचक्रं प्रविश्यमाना प्रथमा भारतीय महिला अभवत्। तत्पूर्वं हम्पी चैनादेशस्य सोंग युक्सिन इत्याख्यां पराजित्य उपान्त्यचक्रं प्रविष्टवती। इति वार्ताः।